एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। काष्ठमण्डपो उपत्यका पराधानुसन्धान कार्यालयस्य प्रहरी समूहेन राजधानीतः आसन्न पञ्चविंशतिः कोटयः द्वाविंशतिर् लक्षाणि पञ्चचत्वारिंशत् सहस्राणि च रूप्यकाणि नियन्त्रितानि वर्तन्ते। विपुल परिमाणे नेपाली रूप्यकाणाम् एतावत् परिमाणस्य अमेरिका देशीय डलर मुद्राणाम् राजस्वम् प्रवञ्च्य नयनानयनम् व्यवसायश्च विद्यमानोऽस्त इति सूचनायाः आधारेण अनुसन्धान कार्यालयात् परिचालितेन प्रहरी समूहेन सोमवासरस्य रात्रौ टोखा नगरपालिकायाः झोरस्थानात् नियन्त्रितानि वर्तन्ते। वस्तुवाहक ट्रकयानस्य चालकस्थाने स्थानम् निर्माय संगोप्य आनीतावस्थायाम् ट्रकयान चालकेन सिन्धुपाल्चोक जनपदस्य भोटेकोशी ग्रामपालिकायाः त्रिचत्वारिंशत् वर्षीयेण कुसाङ लामा इत्यनेन सहितानि पञ्चविंशति कोटितोऽपि अधिकानि एतावन्ति रूप्यकाणि निगृहितानि सन्तीति ह्यः आयोजिते पत्रकार सम्मेलने प्रहरी उपरीक्षकः काजी कुमार आचार्यः अज्ञापयत्। निगृहिताभिः वैदेशिक मुद्राभिः सह नियन्त्रितोऽयम् जनः एकोनविंशत्यधिक द्विसहस्रतम विक्रम वर्षीयस्य वैदेशिक विनिमयाधिनियमस्य अनुसारेण विहितस्य अपराधे अतिरिक्तानुसन्धानाय दण्डनाय च राजस्वानुसन्धान विभागाय प्रदत्तोऽस्तीति प्रेरणा ज्ञापितम् वर्तते। उदयपुर जनपदस्य चौदण्डीगढ़ी नगरपालिकायाः सप्तमवडा क्षेत्रवर्तिनी कल्याणचोकस्थाने भीषणे अग्निदाहे कोटिशो रूप्यकाणाम् क्षतिः सम्भूतास्ति। स्थानीयस्य शरण राई इत्यस्य गृहे विद्युत् प्रस्रवणेन सहैव अग्निदाहे सति त्रीणि गृहाणि नष्टानि सन्ति। ह्यदिवा सहसा विद्युत् प्रस्रवणेन सहैव प्रारब्धेन अग्निदाहेन त्रीणि गृहाणि पूर्णतया अन्यानि गृहाणि आंशिक रूपेण च क्षतिग्रस्तानि सन्तीति प्रेरणा ज्ञापितम् वर्तते। एवमेव खोटाङ जनपदस्य हलेसी तुवाचुङ नगरपालिकायाः द्वितीयवडा क्षेत्रस्य ढिकुवा स्थानस्य विभिन्नेषु सार्वजनिकेषु वनेषु दुरापन्नेन अग्निदाहेन ग्रामस्य एको विद्यालयः नव गृहगोष्ठानि च क्षतिग्रस्तानि सन्तीति ज्ञापितम् वर्तते। प्रधानमन्त्रिणः पोखरा स्वास्थ्य विज्ञान प्रतिष्ठानस्य कुलपतिश्च केपी शर्मा ओलिनः अध्यक्षतायाम् प्रतिष्ठानस्य नवमः सभोपवेशः सम्पन्नोऽस्ति। प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य उपविशे प्रतिष्ठानस्य वर्तमान आर्थिक वर्षस्य आयव्ययकम् कार्यक्रमाश्च स्वीकृताः सन्ति। सहैव गतार्थिक वर्षस्य महालेखा परीक्षकस्य प्रतिवेदनस्य विषयम् विज्ञाप्य तत्र सुधारणीय विषयेष् ध्यानम् दातुम् बलम् च दत्तम् वर्तते। उपवेशे प्रधानमन्त्री ओली चिकित्सा शिक्षायाः सहैव पोखरा याः निकटस्थ क्षेत्राणाम् च जनानाम् स्वास्थ्य सेवाम् प्रभावकारिणीम् विधातुम् निर्दिष्टवान्। उपवेशे स्वास्थ्य जनसंख्या मन्त्री प्रतिष्ठानस्य सहकुलपति प्रदीप पौडेलश्च सहभागी आसीत्। उपवेशे प्रतिष्ठानस्य उपकुलपति डाक्टर डुकबहादुर क्षेत्री प्राज्ञिक व्यवस्थापकीय स्वास्थ्य सेवानाम् क्षेत्रेषु विहिताया प्रगतिम् प्रस्तुतवान् आसीत्। परराष्ट्र मन्त्रिणः डाक्टर आर्जु राणा देवा इत्यस्याः भारतदेशस्य विदेश मन्त्रिणः डाक्टर एस जयशंकरस्य च मध्ये ह्य नवदेहल्याम् मेलवार्ता सम्भूतास्ति। भारतदेशस्य विदेश मन्त्रालयेन नवदेहल्याम् आयोजिते रायसीना डायलग इति विमर्शन कार्यक्रमे सहभागितायी तत्र स्थितायाः परराष्ट्र मन्त्रिणः डाक्टर देवा इत्यस्याः भारतदेशस्य विदेश मन्त्रिणः जयशंकरस्य च मध्ये ह्य सम्भूते मेलने नेपाल भारतयोः ऐतिहासिकस्य द्विपक्षीयस्य सम्बन्धस्य द्वयोः देशयोः अभिरुचेः पारस्परिकस्य लाभस्य च विभिन्नेषु विषयेषु विमृष्टमिति परराष्ट्र सचिवः परराष्ट्र मन्त्रालयस्य सचिवालयेन ज्ञापितम् वर्तते। अत्रान्तरे परराष्ट्रमन्त्री डाक्टर राणा जलवायु परिवर्तनस्य प्रभावम् गभीरतया न्यूनीकर्तुम् सामूहिक सहकार्याय बलम् प्रदत्तवती वर्तते। भारतस्य विदेश मन्त्रालयेन नवदेहल्याम् आयोजिते रायसीना डायलग इति जलवायु परिवर्तन सम्बद्धम् सत्रम् सम्बोधयन्ति मन्त्री डाक्टर राणा, विकासशीलैः देशैः जलवायु परिवर्तनस्य अकल्पनीयः प्रभावः अनुभूयमानोऽस्ति। नेपालस्य तादृशानाम् देशानाम् अग्रपङ्क्तौ दृश्यते इति अगदत्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः निगदति संविधान संशोधनात् पूर्वं बृहत् समीक्षा आवश्यकी वर्तते। सप्तविंशस्य सांस्कृतिक प्रतिरोध दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते तद विक्रम वर्षीय जनसांस्कृतिक राष्ट्रिय सम्मान प्रदान कार्यक्रमे अध्यक्ष प्रचण्ड सम्प्रति संविधान संशोधनादपि समीक्षाया कृते विमर्शनम् आवश्यकम् अस्ति इति अवोचत। वैज्ञानिक समाजवादम् अंगीकृताः सर्वे माओवादिनः शीघ्रमेव एकताबद्धाः भविष्यन्ति इति विश्वासम् अभिव्यज्य अध्यक्ष दाहाल वामपन्थिनाम् एकताया कृते आत्मना दायित्ववाहिना प्रयासः करिष्यते इति उदैरयत। नेपाली कांग्रेस दलस्य पदाधिकारीणाम् पूर्व पदाधिकारीणाम् च उपवेशेन अस्यैव चैत्र मासस्य दशमे दिवसे दलस्य केन्द्रीय कार्य सम्पादन समितेः उपवेशः आहूतोऽस्ति। दलस्य सभापते शेरबहादुर देवाभिधस्य निवासे ह्य उपविष्टेन उपवेशेन सामयिक राजनीतिकस्य दल सञ्चालनस्य च विभिन्नेष् विषयेष् विमृष्टुम् उपवेश आहूतोऽस्ति ज्ञापितम् वर्तते। उपवेशे राजवादिनाम् पश्चात्तन गतिविधीनाम् विषयेऽपि समीक्षा सम्भूतास्ति। सैव साम्प्रतिक्यः व्यवस्थायाः संविधानस्य च रक्षायै पूर्णरूपेण क्रियाशीलैर्भाव्यमिति निष्कर्षश्च प्रकाशितोऽस्ति। नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर प्रकाश शरण महत असूचयत। सर्वदलीय सर्वकारस्य निर्माणस्य विषये जायमानस्य विमर्शनस्य विषये नेपाली कांग्रेस दलस्य प्रवक्ता डाक्टर महत सर्वदलीय सर्वकारस्य विषये कोऽपि विमर्श न विहितः। प्रतिपक्षे स्थितानि माओवादी केन्द्र प्रवृत्तिनि दलानि वर्तमानस्य संविधानस्य पक्षे एव सन्तीत्यतः संविधानस्य रक्षायै सर्वाणि दलानि एकत्र सन्तीति च समस्पष्टयत। सुदूर पश्चिम प्रदेशस्य कैलाली डोटी अछाम बाजुरा बजाङ मार्गेण उरै भञ्जाङ यावत प्राप्तेः सेतीलोकमार्गस्य भोगाधिकारस्य वृक्षकर्तनस्य च आदेश प्रदातुम् सहमतिः दत्तास्ति। ह्य वनवातावरण मन्त्रिणः ऐन बहादुर साईनः डोटी जनपदात् निर्वाचितस्य प्रतिनिधिसभा सदस्यस्य पूर्वमन्त्रिणः प्रेम बहादुर आले इत्यस्य वन मन्त्रालयस्य सचिवस्य डाक्टर दीपक खराल इत्यस्य अन्येषाम् अधिकारीणाम् च मध्ये मन्त्रालये सम्भूते विमर्शने भोगाधिकारस्य वृक्षकर्तनस्य च कृते आदेशं प्रदातुं सहमतिः धृतास्ति इति समाचाराः।